इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। विभिन्नानां राजनैतिक दलानां प्रमुखाः नेतारः असम केरलम् पुदुचेरी राज्याणां मतदातृन् आक्रष्टुम् अन्तिमं प्रयासं कुर्वन्तः सन्ति। अवधेयं यत् द्वयोः राज्ययोः तथा केन्द्रशासित प्रदेशे च विधानसभा निर्वाचनस्य प्रचारः श्वः समाप्तः भविष्यति। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्रमोदी च अद्य आत्मविश्वासं प्रकटितवान् यत् भारतीय जनता पार्टीति दलम् असमराज्ये निरन्तरं तृतीयवारं सर्वकारस्य निर्माणं करिष्यति। कांग्रेसदलस्य नेता राहुलगांधी पुदुच्चेरीराज्यं पूर्णराज्यस्य अधिकारं प्रदातुं प्रतिबद्धतां पुनः दृढीकृतवान्। रक्षामन्त्री राजनाथ सिंहः अद्य अवदत् यत् देशस्य सैनिकानां कृते सर्वोत्तम स्वास्थ्य सुविधा प्रदानं सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। भारतीय जनता पार्टीति दलम् अद्य स्वस्य सप्तचत्वारिंशत्तमं स्थापना दिवसम् आचरति। श्रीमोदी अवदत् यत् भारतीय राजनीत्यां नेशन फर्स्ट इति नूतनं सिद्धान्तं दलेन स्थापितम्। ईरानदेशेन प्रतिकारात्मकाक्रमणानां कृते तदा सञ्चेतितं यदा अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेण सञ्चेतितं यदि ईरानदेशः होर्मुज जलसन्धिं पुनः उद्घाटयितुं तस्य समयसीमायाः पालनं न करिष्यति तर्हि तस्य सेतवः ऊर्जाकेन्द्राणि च नष्टानि भविष्यन्ति। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स दलं पंजाब किंग्स दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। विभिन्नानां राजनैतिक दलानां प्रमुखाः नेतारः असम केरलम् पुदुच्चेरी राज्याणां मतदातृन् आक्रष्टुम् अन्तिमं प्रयासं कुर्वन्तः सन्ति। यतः द्वयोः राज्ययोः तथा केन्द्रशासित प्रदेशे च विधानसभा निर्वाचनस्य प्रचारः श्वः समाप्तः भविष्यति। असमराज्ये षड्विंशत्यधिकैकशतासनेषु केरलम् राज्ये चत्वारिंशोत्तरैकशतासनेषु पुदुचेरीराज्ये त्रिंशत् आसनेषु च गुरुवासरे एकस्मिन् एव चरणे मतदानं भविष्यति। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्रमोदी च अद्य आत्मविश्वासं प्रकटितवान् यत् भारतीय जनता पार्टीति दलम् असमराज्ये निरन्तरं तृतीयवारं सर्वकारस्य निर्माणं करिष्यति। असमराज्यस्य बारपेटा नगरे निर्वाचनसमारोहं सम्बोधयन् श्रीमोदी अवदत् यत् देशस्य विकासाय आत्मनिर्भरकरणाय च दलस्य संकल्पः अस्ति। सः अवदत् यत् विगत दशवर्षाणि असमराज्ये शान्त्या समृद्ध्या च चिह्नितानि सन्ति। तेनोदीरितं यत् अनेन दशकेन असुविधया असुरक्षया समाह्वानैः च सः राज्यं दूरं कर्तुं साहाय्यं कृतम्। सः अवदत् यत् आगामिषु वर्षेषु असमराज्यस्य समृद्धिः स्वावलम्बनार्थं तस्य यात्राः शक्तयः च इतोऽपि विस्तारिताः भविष्यन्ति।
बीते 10 साल असम में शांति और सद्भाव की स्थापना के थे। आने वाले साल असम की समृद्धि को विस्तार देंगे। बीते 10 साल असम को असुविधा और असुरक्षा से बाहर निकालने के थे। आने वाला समय असम की आत्मनिर्भरता का होगा। बीते 10 साल असम की पहचान को बचाने के थे। अब हमें असम की पहचान को दुनिया में बुलंद करना है।
असम राज्ये मूल सौकर्याभिवृद्धिं प्रकाशयन् प्रधानमन्त्री अवदत् यत् राज्ये संवर्धितः सम्पर्कः पर्यटनक्षेत्रं सकारात्मकरूपेण प्रभावयति येन समग्रार्थव्यवस्थायाः लाभः अभवत्। श्रीमोदिना आरोपितं यत् कांग्रेसदलेन कदापि विकासार्थं दीर्घकालीनदृष्ट्या सह कार्यं न कृतं तस्य स्थाने राजनैतिक लाभार्थम् अल्पकालिक उपायेषु अवधानमेव प्रदत्तम्। सः अवदत् यत् भाजपेति दलं विकसित भारतस्य अंशरूपेण विकासित असम राज्यस्य लक्ष्यं साधयितुं दीर्घकालीनदृष्टिकोणेन कार्यं कुर्वन्नस्ति। कांग्रेसदलस्य वरिष्ठः नेता तथा लोकसभायां विपक्षस्य नेता राहुलगांधी पुदुच्चेरीनगरस्य लॉस्पेट नगरे सार्वजनिकसभां सम्बोधितवान्। पुदुच्चेरीराज्यं पूर्णराज्यस्य अधिकारं प्रदातुं कांग्रेसदलस्य प्रतिबद्धतां राहुलेन पुनः दृढीकृतम्। केरलम राज्य प्रचारस्य अन्तिमे दिने राज्यस्य सर्वेषु चत्वारिंशोत्तरैकशतासनानां विविध राजनैतिक दलानां वरिष्ठ नेतृभिः सह उपवेशनं पथप्रदर्शनं च करिष्यति। भाजपेति दलस्य वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री अमितशाहः हरिपदनगरे पथप्रदर्शने भागम् अगृह्णात्। वरिष्ठः सीपीएम नेता तथा केरलस्य मुख्यमंत्री पिनाराई विजयन वर्यः अद्य स्वसर्वकारस्य प्रगतिपत्रं प्रसारितवान्। सीपीएम दलस्य सामान्य सचिवः एमए बेवी कोल्लम जनपदे कार्यक्रमेषु भागं भजति। एतदतिरिच्य तमिलनाडु राज्ये विधानसभा निर्वाचनार्थं पश्चिमबंग प्रदेशे प्रथमचरणीय निर्वाचनार्थं च अद्य सायंकाले नामांकन प्रक्रिया समाप्यते। श्वः नामांकन पत्राणां परीक्षणं भविष्यति। प्रत्याशिनः अस्य मासस्य नवम दिनांकात् प्राक् नामांकनं प्रत्यावर्तितुं शक्नुवन्ति। तमिलनाडु राज्ये चतुस्त्रिंशोत्तर द्विशतासनेषु, पश्चिमबंगाल राज्ये द्विपञ्चाशदधिकैकशतासनेषु च अस्मिन् मासे त्रयोविंशति दिनांके मतदानं भविष्यति। अस्मिन् मासे ऊनविंशति दिनांके एव पश्चिमबंगाल राज्ये द्वितीय चरणस्य मतदाने द्विचत्वारिंशदधिकैकशतासनानि समाविष्टानि सन्ति। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्री राजनाथ सिंहः अद्य अवदत् यत् देशस्य सैनिकानां कृते सर्वोत्तम स्वास्थ्य सुविधा प्रदानं सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। सः अवदत् यत् सैनिकाः अहर्निशं राष्ट्रसेवारताः भवन्ति, प्रत्येकस्मिन् ऋतौ स्थितौ च। श्रीसिंहः अद्य नवदिल्ल्यां सेना चिकित्सा कोर इत्यस्य स्थापना दिवसम् अभिसम्बोधयन् आसीत्। मन्त्रिणा देशस्य अन्येष् भागेष् अपि शोध एवं सम्प्रेषण चिकित्सालयादि सौकर्याणां विकासाय बलं प्रदत्तम्। सः अवदत् यत् एतादृशाः प्रमुखाः संस्थाः देशस्य प्रत्येकस्मिन् कोणे उपस्थिताः भवेयुः, येन सैनिकानां कृते सर्वत्र उत्तम चिकित्सा सौविध्य प्रदानं भवेत्। सः अग्रे अवदत् यत् सैन्य नर्सिंग सेवा परिचारिकाः याः चिकित्सा बलानां आधारभूताः सन्ति ताभ्यः सेवानिवृत्तेः अनन्तरं पूर्वसैनिकस्य उपाधिं न प्रदीयन्ते स्म। मन्त्रिणा उक्तं यत् सर्वकारेण तेभ्यः भूतपूर्वसैनिकस्य उपाधिं प्रदातुं निर्णयः स्वीकृतः। भारतीय जनता पार्टी इति दलम् अद्य स्वस्य सप्तचत्वारिंशत्तमं स्थापना दिवसमाचरति। अस्मिन्नवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना, अमितशाहेन, दलस्य अध्यक्षेण नितिन नवीनेन च सह अन्यैः वरिष्ठैः दलनेतृभिः भाजपा कार्यकर्तृभ्यः शुभाशयाः प्रेषितवन्तः। एकस्मिन् दृश्य श्रव्य सन्देशे श्रीमोदी अवदत् यत् भारतीय राजनीत्यां नेशन फर्स्ट इति नूतनं सिद्धान्तं दलेन स्थापितम्। सः दलस्य कार्यकर्तृणां निःस्वार्थ सेवायाः, समर्पणस्य, सुशासनस्य, प्रतिबद्धतायाः च प्रशंसा कृतवान्। दशकेष् नैकेषां कार्यकर्तृणां योगदानं स्मृतवान्। अस्मिन्नवसरे श्रीमोदिना डॉ श्यामप्रसाद मुखर्जी, दीनदयाल उपाध्याय, नानाजी देशमुख, कुशाभाव ठाकरे, अटल बिहारी वाजपेयी, लालकृष्ण आडवाणी, मुरली मनोहर जोशी इत्यादयः भाजपेति दलस्य संस्थापकाः अपि स्मृताः। अस्मिन्नवसरे दलस्य वरिष्ठः नेता अमितशाहः तिरुवनन्तपुरम नगरस्य दल कार्यालये भाजपेति दलस्य ध्वजारोहणं कृतवान्। दलाध्यक्षः नितिन नवीनः अपि दलस्य राष्ट्रप्रथमम् इति सिद्धान्तं पुनः दृढीकृतवान् तथा च विकसित भारतस्य निर्माणे सामूहिक प्रयासानाम् आह्वानमपि अकरोत्। ईरानदेशेन संचेतितं यत् यदि देशस्य नागरिकाः पुनः आक्रम्यन्ते तर्हि अधिकविनाशकारि प्रतिकारः भविष्यति। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन संचेतितं यत् यदि ईरानदेशः होर्मुज जलसन्धिं पुनः उद्घाटयितुं तस्य समयसीमायाः पालनं न करिष्यति तर्हि तस्य सेतवः, ऊर्जाकेन्द्राणि च नष्टानि भविष्यन्ति। इत्यस्याः संचेतनायाः अनन्तरम् एषा पूर्वसूचना प्रदत्ता। वर्धमानस्य पश्चिम एशिया द्वन्द्वस्य मध्ये प्रमुखः वैश्विक नौवहन मार्गः प्रभाविरूपेण निरुद्धः एव अस्ति। आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स दलं पंजाब किंग्स इत्यमुं दलं सम्मुखीकरिष्यति। क्रीडा सायं सार्ध सप्तवादने आरभ्यते। गतरात्रौ रॉयल चैलेंजर्स बेंगलुरु दलेन चेन्नई सुपर किंग्स दलं त्रिचत्वारिंशत् धावनांकैः पराजितम् इति वार्ताः।